अथ श्रीरामपञ्चकम् प्रातस्मरामि रघुनाथपदारविन्दम् मन्दस्मितं मधुरभाषविशालफालम् कर्णावलम्बिचलकुण्डललोलगण्डम् कर्णान्तदीर्घनयनं नयनाभिरामम् प्रातर्भजामि रघुनाथकरारविन्दम् रक्षोगणाय भयदं वरदं द्विजेभ्यः यद्राज्यसंसदि विभज्य महेशचापम् सीताकरग्रहणमण्डलमापसद्यः प्रातर्नमामि रघुनाथपदारविन्दम् वज्राङ्कुशादिशुभरेखध्वजावहं मे योगीन्द्रमानसमधुव्रतसेव्यमानम् शापापहंसपदि गौतमधर्मपत्न्याः प्रातश्रये श्रुतिनुतां रघुनाथकीर्तिं नीलाम्बुदोत्पलसितेतररत्ननीलाम् आमुक्तमौक्तिकविभूषणभूषणाढ्याम् ध्येयां समस्तमुनिभिर्जनमृत्युहन्त्रीं प्रातर्वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं शमलं निहन्ते यत्पार्वती स्वपतिना सह भोक्तु कामा प्रीत्या सहस्रहरिनाम समं जजाप यश्लोकपञ्चकमिदं नियतं पठेत्तु प्रातः प्रभातसमये पुरुषः प्रबुद्धः श्रीरामकिङ्करजनेषु स एव मुख्यो भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् वादिराजयति प्रोक्तं पञ्चकं जानकीपतेः श्रवणात् सर्वपापघ्नं पठनान्मोक्षदायकम् इति श्रीवादिराजतीर्थविरचितं श्रीरामपञ्चकम्।